एतां प्रकृतिमप्राप्त सर्ववर्ज्यानि वर्जयेत् महादोषकराण्यष्टौ इमानि तु विशेषतः उच्चैर्भाष्यं रथक्षोपम् अविचङ्क्रमणासने अजीर्णाहिदभोज्ये च दिवास्वप्नं स मैथुनं तज्जादेहोर्ध्वसर्वाधो मध्यपीडामदोषजाः श्लेष्मजाश्चयजाश्चैव व्याधयस्युर्यथाक्रमम्।